सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः कृष्णो रक्षतु नश्चगत्रय गुरुः कृष्णं नमस्याम्यहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम्। अस्तु, अद्यतन सुभाषितम् एवम् अस्ति। मातेव रक्षति पितेव हिते नियुङ्क्ते मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्य पत्नीपनीय खेदम् कान्तेव चाभि कान्तेव चाभिरमयत्य पनीय खेदम् लक्ष्मीं तनोति चिनो वितनोति च दिक्षु कीर्तिं लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या किं किं न साधयति कल्पलतेव विद्या। पुनरेकवारं पठामि। मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमत्य पनीयखेदम् लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या। पदच्छेदं कुर्मः चेत् विद्या माता इव रक्षति मातेव माता इव सो अत्र सन्धिकार्यम् अस्ति मातेव माता इव रक्षति विद्या पिता इव पितेव पिता इव हिते नियुङ्क्ते अर्थं जानीमः अग्रे नियुङ्क्ते कान्ता इव च अभिरमते अपनीयखेदम् कान्ता इव च अभिरमते अपनीयखेदम् लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिम् किं किं न साधयति कल्पलते कल्पलता इव कल्पलता इव विद्या इति। अस्तु, अर्थं जानीमः। इदानीं विद्या मा रक्षति माता इव पालनं करोति अस्माकं बुद्धिं पालयति रक्षति अस्मान् रक्षति पिता इव हिते नियुङ्क्ते उत्तममार्गं बोधयति एवं करोतु एवम् एवं मा करोतु इति पिता इव अस्मान् हिते हितकार्ये योजयति विद्या विद्या इत्युक्ते बुद्धि अस्ति चेत् एवम् एवं करोति कान्ता इव कान्ता इव खेदम् अपनीय वयं दुःखम् अनुभवामः चेत् बुद्धिः अस्ति चेत् किमर्थम् एवं स्मः वयम् इति चिन्तनं बोधयति कान्ता इव खेदम् अपनीय अपनीय इति दूरीकृत्वा खेदं दुःखं दूरीकृत्वा अभिरमयति इत्युक्ते सन्तोषं जनयति।
भगिनी कान्ता हियर् मीन्स् वैफ् भगिनी
वैफ् वैफ् अथवा प्रिया बेटर् हाव् अ प्रिया अस्ति चेत् somebody who loves us कान्ता कान्ता इव खेदम् अपनीय अभिरमयति, सन्तोषं जनयति, लक्ष्मीं तनोति, इत्युक्ते लक्ष्मी आगच्छति, धनं सम्पादयामः, कीर्तिं दिक्षु वितनोति, अस्माकम् अत्र नास्ति चित्रं सम्यक् नास्ति, कीर्तिं दिक्षु वितनोति, सर्वे अस्मान् जानन्ति इति तादृशं कीर्तिः सर्वत्र प्रसारयति, कीर्तिं सर्वत्र प्रसारयति, अस्माकं मनसि बुद्धि अस्ति चेत्, विद्या अस्ति चेत्, विद्या किं किं न साधयति, अतः सा विद्या कल्पलता इव, इत्युक्ते सर्वं ददाति, किं किं न साधयति, वयं वदामः खलु कामधेनु कल्पवृक्ष इति, कल्पवृक्षः इव कामधेनुः इव कल्पलता इव विद्या सर्वं ददाति, माता इव अस्मान् रक्षति, पिता इव उत्तममार्गे योजयति, कान्ता इव खेदम् अपसरति, लक्ष्मीं तनोति, कीर्तिं वितनोति, सो अतः विद्या एव महत्त्वम् एवम् अस्ति इति. सो अत्र अन्यरीत्या पश्यामः चेत् अस्मिन् सुभाषिते सुभाषितकारः विद्यायाः महत्त्वं वर्णयति. विद्या माता इव रक्षति, यथा माता स्वपुत्रं पुत्रीं वा रक्षति तद्वत् विद्या अपि अस्मान् रक्षति, पिता स्वपुत्रम् उत्तमकार्ये एव नियोजयति, एवमेव विद्या अपि अस्मान् सत्कार्ये नियोजयति, विद्या पत्नी इव मनसः खेदं दुःखं निवार्य सन्तोषम् अपि ददाति, पत्नी इव सुखं ददाति, विद्याभ्यासात् बलेन उद्योगं प्राप्य ऐश्वर्यं प्राप्तुं शक्यते, अपि च यः अध्ययनं कृत्वा विद्वान् विद्यावान् भवति तस्य कीर्तिः सर्वत्र प्रसारिता भवति. अन्ते सुभाषितकारः वदति विद्या सर्वं साधयति, अतः विद्यया किं न साधयितुं शक्यते इति प्रश्नं पृच्छति. अवगच्छति वा, प्रश्नः अस्ति वा?
अवगच्छति.
अस्तु, अग्रे गच्छामः. अद्यतन कथा एवमस्ति, सौभाग्यवती भव इति आशीर्वादं ददाति. कः ददाति, कस्यै ददाति इति पश्यामः. पठितुम् इच्छति वा श्रीनिवास महोदय?
आं भगिनि.
आम्,
श्वः सर्वान् पाण्डवान् युद्धे. भगिनि, इस् स्टार्टिङ्ग् प्रापर्लि आर् समवेर् इन् द मिडल्? ओके,
नो नो नो, इट्स् स्टार्टिङ्ग् प्रापर्लि, स्टार्टिङ्ग् प्रापर्लि. कथा, पुनः वदामि, कथायाः नाम सौभाग्यवती भव. सो अत्र सङ्कलनकः अस्ति सचिवः इति, व इति एव चिन्तयामि, सचिनः इति अस्ति, परन्तु अहं चिन्तयामि व, सचिवः इति. अस्तु, श्वः
सर्वान् पाण्डवान् युद्धे हनिष्यामि अहम्. युद्धस्य कस्मिंश्चित् दिने पितामह भीष्मः घोषणाम् अकरोत्. तस्य शक्तः सामर्थ्यस्य च विषये जानाना सर्वे पाण्डवपक्षीयाः भीताः. एवं चेत् किम् अग्रे इति आतङ्कः तेषाम्. तां रात्रिं सर्वे चिन्तया एव अयापयन् नकोपि केनापि सह अभाषत सर्वे अपि चिन्ताक्रान्ताः
अहं वदामि वा भवान् वदति वा
करोमि
प्रयत्नं करोतु
प्रयत्नं करोमि पाण्डवगौरव युद्धसमये भीष्मः भीष्मः शपथं कृतवान् सः सर्वान् पाण्डवानां युद्धे हनिष्यामि इति भीष्मस्य शक्ति ज्ञातुं पाण्डवाः भीताः भीताः ओके रात्रिं रात्रिमेव चिन्तयन्तः कोऽपि केनापि अभाषतः सर्वे अपि चिन्तावन्तः
सम्यक् ते सर्वे चिन्तितवन्तः किं भविष्यति श्वः सः सर्वान् मारयति पाण्डवान् मारयति चेत् अस्माकं गतिः का इति भीत्या सर्वे न वदन्ति एव अभाषत न वदन्ति एव इति मौनेन सर्वे स्थितवन्तः कोऽपि केनापि सह विद् एनिबडि Nobody wants to talk about it. इति बहु दुःखम् अपि च भीतिं च अनुभूतवन्तः आतङ्कः इत्युक्ते पेनिक् इति त्रास तादृशभीति साधारणभीति न तादृशभीति इत्युक्ते मरणम् आसन्नः अस्ति इट् इस् हेपनिङ्ग् इस् गोयिङ्ग् टु हेपन् इति अस्तु अम्ब चम्पा भगिनि चम्पा भगिनि अग्रे
भगिनि महत् ओके रात्रौ एव श्रीकृष्णः द्रौपदीम् उपसर्प्य आदिष्टवान् अधुना एव त्वं भीष्मस्य आवासं गत्वा तं नमस्कुरु इति किमर्थम् इदानीं मध्यरात्रे तत्र गमनम् इति अपृच्छत् द्रौपदी तदा कृष्णः अवदत् प्रतिप्रश्नं कमपि मा कुरु अविलम्बेन गच्छ इति
धन्यवादः भगिनि इदानीं रात्रौ श्रीकृष्णः किम् उक्तवान् काम् उक्तवान्
हि उक्तवान् अप्सर्प्य आदिष्टवान्
उपसर्प्य इत्युक्ते द्रौपद्याः समीपं गत्वा उपसर्प्य इत्युक्ते समीपं गत्वा समीपं गत्वा आदिष्टवान् इत्युक्ते केवलं न उक्तवान् आज्ञां दत्तवान् अधुना
आदिष्टवान् मीन् आज्ञा
आज्ञां दत्तवान् अधुना एव इदानीमेव त्वं भीष्मस्य आवासम् इत्युक्ते वासस्थलं सः कुत्र निवसति तत्र गत्वा तं नमस्कुरु नमस्कारं करोतु इदानीम् इदानीमेव इति
इदानीं मध्यरात्रि किमर्थम् इदानीं मध्यरात्रे तत्र गमनं द्रौपदी मध्यरात्रिं कं गमनं
तत्र गमनं किमर्थं तत्र गमनं मध्यरात्रे एव इति अपृच्छत् द्रौपदी पृष्टवती द्रौपदी तदा कृष्णः वदति प्रतिप्रश्न कमपि मा करो पुनः पुनः प्रश्नं मा पृच्छतु केवलं गच्छतु विलम्बः मास्तु अविलम्बेन विलम्बं विना विलम्बेन विना गच्छतु इदानीमेव इति आदेशं दत्तवान् अस्तु अम्ब अग्रे पठति वा धन्यवादः भगिनि
द्रौपदी तु भीता सती अपि श्रीकृष्णे पूर्णतः विश्वासं कृत्वा भीष्मावासं गतवती मध्यरात्रे आगतां नमस्कुर्वती पौत्रवधूं दृष्टा महत् आश्चर्यं प्राप्तं भीष्मेन तथापि तेन सहजतया आशीर्वादः दत्त अखण्डसौभाग्यवती भव
इति किम् अभवत् अग्रे द्रौपदी आनन्देन गतवती वा भीता सती गतवती वा
भीता सती गतवती
गतवती किमर्थं गतवती कृष्णे पूर्णतया विश्वासं कृष्णः वदति चेत् सम्यक् एव भवति सम्यक् एव इति विश्वासेन पूर्णविश्वासेन कुत्र
गतवती
कुत्र गतवती
मध्यरात्रे आगताः नमस्कुर्वती पौत्रवधूं दृष्टा महत् आश्चर्यं प्राप्तुं श्री भीष्मेन
दृष्ट्वा भीष्मावासं भीष्मस्य आवासं भीष्मावासं गतवती मध्यरात्रे आगतां नमस्कुर्वतीं पौत्रवधूं दृष्ट्वा कां दृष्ट्वा पौत्रस्य वधूं पौत्रः इत्युक्ते पाण्डवाः पौत्राः पौत्राणां वधू अस्ति द्रौपदी पौत्राणां वधूं दृष्ट्वा पौत्रवधूं दृष्ट्वा नमस्कुर्वती इत्युक्ते अत्र शत्रन्तरूपम् शत्रन्तरूपम् इत्युक्ते नमस्कारं करोति परन्तु तत् कार्यं न समाप्ता तत् कुर्वतीं पौत्रवधूं दृष्ट्वा मध्यरात्रे आगतां सो अत्र आगतवती द्रौपदी नमस्कारं करोति तां वधूं दृष्ट्वा महत् आश्चर्यं प्राप्तवान् भीष्मः भीष्मेन प्राप्तं कीदृशप्राप्तम् किं प्राप्तम् आश्चर्यं प्राप्तं कीदृश आश्चर्यं महत् आश्चर्यम् अस्तु अग्रे
तथापि तेन सहजतया आशीर्वादः दत्तः अखण्ड सौभाग्यवती भव
अखण्ड इत्युक्ते सम्पूर्णसौभाग्यवती भव इति साधारणतया सौभाग्यवती इत्युक्ते पतिः सन्तोषेण भवतु पुत्रः सन्तोषेण भवतु परन्तु प्रथममस्ति पतिः सन्तोषेण भवतु अतः एव सौभाग्यवती इति अस्ति धन्यवादः अम्ब अत्र अहं किञ्चित् व्याकरणं वदामि सति इत्युक्ते अस् धातु अस् धातु अस्ति भीता अस्ति सा अस्ति क्रियापदस्य शत्रन्तस्त्रीलिङ्गरूपं सन् इति पुल्लिङ्गे भवति भीतः सन् अपि पुल्लिङ्गे भवति आल्दो हि वास् स्केर्ड् इति परन्तु अत्र आल्दो शी वास्केर् द्रौपदी तु बीता सन्नपि सन्नपि इत्युक्ते यद्यपि इति अर्थे भवति यद्यपि
No, if I say in English, is it with fear it will be the right word or something else?
In spite of the fear.
Oh, in spite of fear, not with fear, okay. Okay.
Like api, api, when we see api, it's like although iti arte.
Oh, okay.
Bhitas, Draupadi tu, although, bhita sati api. Although she was scared.
Though she is scared.
Yeah, though she was scared. Krishne purnatah vishwasam kritva. But she had full faith in Krishna. Krishne vishwasa iti padam asti che saptami vibhakti. Krishne purnatah vishwasam kritva bhishmavasam gatavati. Gatavati.
So, Bhagi, whenever sati sabda agachati, tarhi saptami vibhakti bhavati.
Saptami vibhakti bhavati, sati. So, atra shataranta rupam. Shataranta rupam sati saptami samaye agachati.
Dhanyavad.
Yeah, dhanyavad. So, we call this sati saptami. So, it is a term when we use saptami vibhakti to show an action, when some other action took place. Udaharanartham, so atra Draupadi kada Bhishma vasam krutavati, kasmin samaye, kasmin sandarbhe, iti prashna bhavati. So at that time we say, Bhita sati api Bhishma vasam gatavati. Like that. So this is not pure Sati Saptami. Okay, this is not pure Sati Saptami. Okay, Sati Saptami, it doesn't work like this. Paranta Sati Saptami, when we use Sati Saptami, we go for Saptami Vibhakti. But this is not Sati Saptami usage. This is more of Shataranta Padam usage. Shataranta means when an action was not completed.
Krishnena purnatah viswasah sah. So tritiya bhi can come there, no?
No, this is Krishne.
And we can make it in the sah, because viswasah sah means Tritiya also can come in, right?
Krishne Vishwasena. Vishwasena.
Vishwasena Saha, okay.
But there is no Saha here. Vishwasena.
Okay.
Krishne Vishwasena Saha Gatavati. Vishwasam kritva vishwasena sa gatavati bhishma vasam gatavati iti. So atra sun, we will see sun for pullinga, like having fear at that time she went fearing, although she was fearing api parantu krishne purnatah vishwasam kritva bhishma vasam gatavati, because she knows Bhishma is in the enemy camp. Iti. Anya pakshe asti iti. Astu. Tata bhagini?
Aam bhagini. Vichayam draupatyaha mukam etasya darshanat kshanardhena vikasitam abhavat. Tad drishtva bhishmena vishayaha samagraha nyataha. Ataha saha हसन् अपृच्छत् ईदृशे मध्यरात्रे माम् उपसर्प्य नमस्कारः करणीयः इति किं त्वां श्रीकृष्णः अवदत् इति.
अस्तु, इदानीं वदतु भगिनि.
एकमपि प्रश्नः कः न पृच्छति. भीष्मस्य वासस्थलं गच्छति. द्रौपद्याः मुखम् एतस्य दर्शनात् क्षणार्थेन विकसितम् अभवत्. क्षणेन अर्थ किं भगिनि?
क्षणम् इत्युक्ते लैक् वन् मोमेण्ट् क्षणम्. परन्तु क्षण अर्धेन अर्ध क्षण स्प्लिट् सेकेण्ड् इति वदामः खलु तादृश.
ओके ओके. सो फर् स्प्लिट् सेकेण्ड् विकसितम् अभवत्
शी बिकेम् लैक् ब्लूमिङ्ग् लैक् अ फ्लवर् विकसितम् अभवत्. परन्तु ततः पूर्वं मुखं कथम् आसीत्? विच्छायम् इत्युक्ते प्रकाशं विना. बिकास् शी वास् वरीड् पाण्डवानां मरणं श्वः भविष्यति इति सा अपि जानाति. अतः श्वः किं भविष्यति इति सा जानाति. अतः प्रकाशं विना मुखम् आसीत्. परन्तु एतस्य वदतु
भीष्मस्य दर्शनात् विकसितम् अभवत् तस्य मुखं. तत् दृष्ट्वा भीष्मेन विषयः समग्रः ज्ञातः. भीष्मः विषयं ज्ञातवान्.
विषयं ज्ञातवान् किम् अभवत्
अतः सः असन् अपृच्छत्. अतः सः अपृच्छत् किमर्थम् ईदृशे मध्यरात्रि यः अत्र मां नमस्कारः करणीयः श्रीकृष्ण उक्तवान् वा इति पृष्टवान्.
एतत्
करणीयम् इति श्रीकृष्णः उक्तवान् वा इति पृष्टवान्.
सो अत्र अपि धन्यवादः भगिनि. समग्र इत्युक्ते पूर्णम् एव अहं शपथं दत्तवान्. अनन्तरं नमस्कारं करोति सा. अहं जानामि इदानीं मम अहं प्रथमं शपथम् अहं पालयामि वा. इदानीं सा सौभाग्यवती इति आशीर्वादं दत्तवान्, तत् पालयामि वा इति न जानामि. परन्तु द्वितीयं यत् अहं दत्तवान् तदेव अहं पालयामि इति कः एव जानाति? श्रीकृष्णः एव इति समग्रः सम्पूर्णं सः ज्ञातवान् एकक्षणे. किं दृष्ट्वा? द्रौपद्याः मुखं विकसितम् अभवत्. तत् दृष्ट्वा भीष्मः सर्वं ज्ञातवान् एकस्मिन् क्षणे. सर्वं ज्ञातवान् भीष्मेन ज्ञातः भीष्मं ज्ञातवान्. अतः सः हसन् अपि शतरन्तरमेव. हसन् पुल्लिङ्गे हसन् सन् एवं भवति. स्त्रीलिङ्गे हसन्ति सती ईकारान्तपदं भविष्यति. स्त्रीलिङ्गे ईकारान्त, पुल्लिङ्गे हसन् एवं भवति. हसन् अपृच्छत् ईदृशे कृष्णः एव वदति वा, वदति खलु इति माम् उपसर्प्य मम समीपम् आगत्य नमस्करोतु इति श्रीकृष्णः एव उक्तवान् खलु इति सः उक्तवान्. अस्तु अग्रे निर्मला भगिनी वा.
न केवलम् अवदत्, स्वयं सः मां स्वीकृत्य आगतवान्. बहिः स्थितवान् अस्ति सः, उदतरत् द्रौपदी. मम एकस्य वचनस्य मम एव वचनान्तरेण खण्डनम्. कारयितुं श्रीकृष्णः एव क्षमः. गच्छ तव वर्तार भगिनि एकेन नमस्कारेण रक्षिताः. द्रौपदी उक्तवती कोऽपि न अवदत् मां स्वयं आगतवती.
सो अत्र न केवलम् अवदत्, सो सः उक्तवान्, केवलम् उक्तवान् इति न, सः माम् अत्र आनीतवान् इति.
Nobody told me, is it?
No. Not only did he not tell me like that. Na kevalam avadat. Ittite saha avadat api maam atra svikritya api agatavan. He did both. He did not just say go. He actually brought me here. Iti.
Bahi stitavan asti saha.
Sri
Krishna stitavan asti.
He is standing outside. He brought me here. He is standing outside. Iti udat udatarat Draupadi. So atra udatarat iti agre.
Mama ekasya vachanasya. Mama eva vachanatarena. This I didn't understand, Bhagini.
Asti Bhagini. Aham vadami. सो प्रथमम् उदतरत् इत्युक्ते उत्तरं दत्तवती. सो उत्तरति इति लट्लकार अस्ति. सो तत् लङ्लकारं करणीयं चेत् प्रथमम् उत् इति त्यजामः. सो अत्र तरति अतरत् अभवत् उत् अतरत्. सो तत्र तकारः दकारं भविष्यति. सो उदतरत् इति लट्तः लङ् एवं करणीयम् उदतरत् इति. सा उत्तरं दत्तवती इति अर्थ. मम एकस्य वचनस्य मम एव वचनान्तरेण खण्डं कारयितुं श्रीकृष्णः एव क्षमः. अहं पूर्वं वचनं दत्तवान् पाण्डवान् मारयामि इति, परन्तु अहमेव तद् वचनस्य खण्डं खण्डम् इत्युक्ते भग्नं कारयितुम् अहमेव अन्यवचनम् इत्युक्ते भवत्याः आशीर्वादेन द्वितीयवचनेन खण्डं प्रथमवचनस्य खण्डं भग्नं कारयितुं श्रीकृष्णः एव क्षमः समर्थः योग्यः. सः एव कर्तुं समर्थः अस्ति. अस्तु सः साधितवान् इति. गच्छ तव भर्तारः इत्युक्ते पतयः एकेन नमस्कारेण रक्षिताः अभवन्. पतयः एकेन नमस्कारेण भवती नमस्कारं कृतवती, तेन नमस्कारेण रक्षिताः अभवन् इति. प्रश्नः अस्ति वा अत्र
भगिनी? पुनः वदतु.
सो अत्र अहं प्रथमं वचनं कृतवान् पाण्डवान् मारयामि इति. मम वचनस्य वचनस्य कारणेन खण्डं कारयितुं प्रथमवचनस्य भग्नं कारयितुं श्रीकृष्णः एव समर्थः अस्ति. वचनस्य मध्ये अन्यसूक्ष्मम् अर्थम् इत्युक्ते सो अत्र अहं केवलं सौभाग्यवती भव इति अहम् उक्तवती, परन्तु तस्य सूक्ष्म अर्थः कः? अहं मम वचनस्य भग्नं न करोमि इति सूक्ष्म अर्थः अस्ति. अहं द्वितीयवचनं दत्तवान्, सो अतः मम प्रथम वचनम् इदानीं न चलति, मम द्वितीयवचनमेव चलति. इत्युक्ते इट् बिकेम् नल्लिफैड्, मम प्रथमवचनम् अभवत् नल्लिफै अभवत्, मम द्वितीयवचनमेव अहं पालयामि इदानीम् इति. वचनान्तरेण प्रथमवचनस्य खण्डं कारयितुं श्रीकृष्णः एव समर्थः. गच्छ. सो अतः सः जानाति इदानीं तव भर्तारः एकेन नमस्कारेण रक्षिताः, इत्युक्ते अहं भवत्याः पतीन् न मारयामि इति वचनं दत्तवान्, नमस्कारेण रक्षिताः अभवन्.
भगिनी, इस् इट् लैक् शी इस् ब्लेस्ड् आल्रेडि बै भीष्म, लैक् सौभाग्यवति भव, देट् मीन्स् शी विल् नाट् गो बि वितौट् हस्बेण्ड्.
करेक्ट्, एक्साक्ट्लि करेक्ट.
She got the blessing, so she is sure now that her
husband
will not be killed.
At least not by
the enemies.
Not by Bhishma, because he cannot go back on his word.
Dhanyavad.
How smart Krishna is, Kalu.
He is smart.
Very smart.
Very smart. All different way.
Aam. Astu, agre. Savita. Bhagini va.
Aam, Bhagini. Sarvam api shrutva भीष्मं मनसा नमस्कृत्य श्वस्तनः सङ्कटं निवारितम् इति विचिन्त्य आश्वस्तः अभवत् श्रीकृष्णः. द्रौपद्या सह प्रतिगमनावसरे सः उक्तवान्, त्वया कृतेन नमस्कारेण तव प्रतिभिः जीवदानं लब्धम्. यदि प्रतिदिनं भीष्मः द्रोणाचार्यम् अन्यान् ज्येष्ठान् च त्वां नमस्कृतवती अभिविश्य अथवा कौरवपल्यः पाण्डुराजं नमस्कृतवत्यः यदि अभविष्यवन् तर्हि प्रायः अस्य युद्धस्य आवश्यकता एवं न अभविष्यत् इति.
अस्तु भगिनि, पर्याप्तम्.
सर्वापि श्रुत्वा भीष्मं मनसा नमस्कृत्य श्वस्तन सङ्कटं निवारितम् इति विचिन्त्य आश्रमस्य अभवत् श्रीकृष्णः. श्रीकृष्णः आश्वस्तः, भीष्मः भीष्मं मनसा नमस्कृत्य श्वस्तन सङ्कटं निवारितम् इति कृष्णः आश्वस्तः अभवत्.
आश्वस्तः इत्युक्ते
आश्वासं दिया, आश्वासं
is like
he felt satisfied. He felt satisfied that Bhishma had blessed Sarvam Pishruta after hearing everything.
After hearing everything, Shvastana Sangatam. Sangatam itikte?
Sankatam is the problem. That is
problem.
The problem has been solved.
Solved. Prevented. चिन्तयित्वा सन्तुष्टः अभवत्.
श्रीकृष्णः अभवत्. द्रौपद्या सह गमनावसरे सः उक्तवान्, त्वया कृतेन नमस्कारेण तव पतिभिः जीवदानं लब्धम्. कृष्णः द्रौपद्या सह प्रतिगमन गमनावसरे सः उक्तवान् त्वया कृतेन नमस्कारेण तव प्रतिभिः जीव पतिभिः जीवदानं लभत्वं लभतः पतिभिः जीवदानं लभतः यदि प्रतिदिनं भीष्मः द्रोणाचार्य अन्यान् ज्येष्ठान् च त्वां नमस्कृतवती अभविष्यः अथवा कौरवपल्ल्यः पाण्डुराजं नमस्कृतवत्या
कौरवपत्न्यः
कौरवपत्न्यः च पल्ल्यः देन् कृष्ण कौरवपत्न्यः पाण्डुराजं नमस्कृतवत्य यदि अभिविष्यन् तर्हि प्रायः अस्य युद्धस्य आवश्यकता एवं न अभविष्यत् इति
अत्र अहं किञ्चित् वदामि भगिनि सो अत्र अभविष्यन् एवम् अस्ति सो दिस् इस् ए न्यू लकार काल् लृङ् लकार लृङ् लृङ् इति अस्ति चेत् भूतकाल भविष्यत्काल मिलित्वा भवति सो अत्र अ इति अस्ति चेत् लङ् लकारस्य लक्षणं खलु अभवत् अपठत् अतिष्ठत् अ इति आरम्भे अस्ति चेत् लङ् लकारं भूतकालं सूचयति परन्तु इष्य पठिष्यति इष्य इति वदामः चेत् लृट् लकारं सूचयति सो अतः लृङ् इति मिलित्वा भूतकालं भविष्यत्कालं मिलित्वा वदामः परन्तु अत्र कः सूचना मीन् का सूचना किं सूचयति इत्युक्ते लृङ्लकारः किं सूचयति इत्युक्ते भूतकाले एतत् न अभवत् अतः भविष्यत्काले एतत् न भविष्यति इति इट् डिड् नाट् हेपन् इट् इस् नेवर् गोयिङ्ग् टु हेपन् इति सो अतः सः वदति यदि भवान् नमस्कृतवती अभविष्यः इफ् यु हेड् डन् बट् शी डिड् नाट् टु एवमेव कौरवपत्न्यः पाण्डुराजं नमस्कृतवत्यः यदि कौरवपत्न्यः नमस्कृतवत्यः परन्तु ते न नमस्कृतवत्यः सो टु शो दट् दे डिड् नाट् डु we use ling lakara like if I had gone to Canada iti yadi aham Canada desham abhavishyah parantu that did not happen iti avagatam va to indicate an action that did not happen we use ling
it did not happen nor it's likely to happen
Not it is likely to happen, but it is usually in the past. So, it did not happen. Like, if I had, like that. But I did not. So, atre, yadi bhavati namaskritavati abhavishyaha, but you did not. Yadi kaurava patnyaha panduraja namaskritavatyaha, parantu te api, taha api na namaskritavatyaha. Yudhasya
the war would not have occurred at all
That's yeah would not means. Have occurred at all but that is not indicated here but something that did not happen yudhasya avashyakata eva na abhavishyat this also did not happen because avashyakata abhavat avashyakata took place so this ring lakara to show yet na abhavat So if it had happened, something would have happened in the future, but it did not happen. Yat na abhavat eva. Abhavat va na bhavishyati va. If it did not happen, I mean, if it had happened, avashyakata would not have happened, but it did happen. So the avashyakata also happened. So if you had done namaskara, then the yuddham would not have happened. If they had done namaskara, then the yuddham would not have happened. But you did not, and they also did not, so the yuddham happened.
सो भगिनी अभविष्यः अभविष्यन् अने अभविष्यत् अभविष्यन् बहुवचने अस्ति
भविष्यन् बहुवचनं अभविष्यत् एकवचनं फार् युद्धस्य आवश्यकता अभविष्यः त्वं मध्यमपुरुष मध्यमपुरुष
धन्यवादः
अस्तु अन्तिम अन्य कोऽपि अस्ति वा नूतन अस्तु श्रीनिवास महोदय अन्तिम
भगिनी जस्ट् टु प्रीव्यू वन् थिङ्ग् ऐ सॉ थिङ्ग् इस् दट् देयर् इस् अ पञ्चमी बहुवचनम् ऐ थिङ्क् ना पितराभिः दट्स् हस्बेंड्स् इन् द वर्ड् वास् देयर् समवेयर
पतिभिः पतिभिः इस्
पतिभिः
तृतीया बहुवचनं
तृतीया बहुवचनम्
पतिभिः जीवदानं लब्धं दे ऐ मीन् इट् वास् The Jeevadanam was received by them. Karmani, Karmani Prayoga. Karmani Prayoga is extensively used in Katha. I don't know why, but it is extensively used in Katha. Itute, Patayaha Jeevadanam Praptavantaha, Labdhavantaha.
Storytelling becomes easy in Karmani Prayoga because story is generally said in the passive voice.
In the passive voice, correct.
Okay. स्नेहं विश्वासम् आत्मीयतां च वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारः अतः एव आचारः अस्ति लोके ज्येष्ठाः नन्तव्याः गन्तव्याः इति बेसिकल्ली ओके ज्येष्ठ ज्येष्ठ्याः जो 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 पूजनीय पूजनीय नमस्कार नमस्कार नमस्कारं करणेन सुरक्षाकवचं प्राप्नोमि
सम्यक् स्नेहम् इत्युक्ते मैत्रीभावः मैत्रीभावः विश्वासं ट्रस्ट् ट्रस्ट् श्रद्धा आत्मीयता हार्ट् फेल्ट् सम्यक् आत्मीयता स वर्धयित्वा वर्धयित्वा टु मेक् इट् ग्रो वर्धयित्वा सुरक्षाकवचं निर्माति नमस्कारं कुर्मः चेत् स्नेहं प्राप्नुमः यं नमस्कुर्मः तेषां स्नेहं प्राप्नुमः विश्वासं प्राप्नुमः आत्मीयतां च प्राप्नुमः नमस्कारेण वर्धनं कुर्मः तेषां स्नेहभावः विश्वासम् आत्मीयतां सर्वं प्राप्नुमः नमस्कारेण अतः एव आचारः इत्युक्ते नमस्कारः आचारः अस्ति लोके पीपल् आचारं करोति किम् आचारं करोति नमस्कारं कुर्वन्ति ज्येष्ठाः नन्तव्याः इति लोके सर्वे नमस्कारं कुर्वन्ति ज्येष्ठान् नमस्कारं कुर्वन्ति इति अस्तु अग्रे गच्छामः प्रश्नः अस्ति वा नास्ति सो अहं चिन्तयामि अग्रिम
बहु सम्यक् कथा
निश्चयेन अग्रिमवर्गे वर्ग आरभ्य कथामेव पठामः वा अन्य श्लोकं स्वीकृत्य पठामः वा इत्युक्ते किं गीताध्यानम् इति कुर्मः वा कथा एव सम्यक् अस्ति वा
श्लोकः कः श्लोकः भगिनी
कथा भगिनी Katha keeps the interest going, because instead we get the story also, so the language goes with it. Shloka will be dry by itself, and then you putting language into it. This makes a dry, one portion dry and one portion interesting makes it better.
Astu, nischayana. So what we'll do is, Subhashitasya sthane, we'll do a shloka. రెలవెంట్ శ్లోక దట్ ఇస్ గీతా ధ్యానం పార్థాయ ప్రతిబోధితాం భగవత సంథింగ్ లైక్ దట్
అబౌట్ ది గీతా
రైట్ రిలేటెడ్ టు గీతా గీతా ధ్యానం
భగిని ఆర్ గీతా
గీతా శ్లోక న గీతా ధ్యానం కృత్వా అనంతరం సుభాషితం ప్రతి గచ్చామః అస్తు सो अत्र धन्यवादः सो अत्र वयं स्थगितवन्तः खलु वि स्टाप्ड् हियर् द लास्ट् टैम् एकमेकं पदं स्वीकृत्य विभक्ति का वचनं किम् इति तदा श्रीकृष्णः तस्य अज्ञाननिवारणार्थम् इति विभक्तिरूपं न परन्तु चतुर्थी विभक्तिं सूचयति गीतोपदेशं कृतवान् इति अस्ति चेत् ततः पूर्वं द्वितीया विभक्ति उपदेशं कृतवान् एवं सः उक्तवान् अर्जुन त्वम् अचिन्तनीयान् विषयान् मा चिन्तय चिन्तनीयान् विषयान् द्वितीया बहुवचनम् चिन्तनीयान् अपि समानं द्वितीया बहुवचनम् मा चिन्तय सो अत्र त्वं पण्डिताः गतासून् आगतासून् च न अनुशोचयन्ति द्वितीया बहुवचनम् आगतासून् गतासून् च अनुशोचयन्ति त्वम् अपि शोकं मा कुरु एतान् सर्वान् द्वितीया बहु अहमेव पूर्वं मारितवान् अस्मि त्वं निमित्तमात्रं भव निमित्तमात्रम् इत्युक्ते कारणं मम कार्यं भवान् करोति इति भवान् न करोति मम कार्यं भवान् करोति इदं न मम इति तादृशं कार्यं तादृशभावेन कार्यं करोतु कर्मकरणे तत्र करणेन इस् तृतीया सप्तमी एकवचनं करणे तव अधिकारः न तु फले अपि सप्तमी अतः त्वं फलविषये सप्तमी मा चिन्तय कर्म एव कुरु
चिन्तय क्षम्यतां भगिनि चिन्तय किं प्रयोगं भगिनि चिन्तय
चिन्तयतु इस् लोट्लकार भवान् चिन्तयतु त्वं चिन्तय मध्यमपुरुष लोट्लकार
ओ लोट्लकार मध्यमपुरुष ओके धन्यवादः
लोट् सो ततः इत्युक्ते अनन्तरं ततः श्रीकृष्णः अर्जुनाय चतुर्थी अर्जुनाय विश्वरूपं दर्शितवान् अत्र अपि तवत् रूपम् अस्ति चेत् ततः पूर्वं द्वितीया विभक्ति भवति विश्वरूपं दर्शितवान् गीतोपदेशं कृतवान् एवम् अर्जुनः दिव्यं चक्षु प्राप्य रूपं किं प्राप्य
नाम
ल्यबन्तं ल्यप् अस्ति चेत् अपि ततः पूर्वं द्वितीया विभक्ति सो अत्र चक्षुः इति नपुंसकलिङ्गपदं सो अतः प्रथमा द्वितीया समानरूपम् दिव्यं द्वितीया अर्जुनः दिव्यं चक्षुः प्राप्य अत्रापि बाणं धनुः इव अत्रापि द्वितीया विभक्ति बाणं द्वितीया विभक्ति धनुः अपि द्वितीया विभक्ति नपुंसकलिङ्गपदं सो अतः मकारः न आगच्छति अत्रापि मकारः न आगच्छति चक्षुम् इति न न भवति चक्षुः एव धनुः इव प्राप्य श्रीकृष्णस्य देहे कृष्णस्य षष्टि
देहे सप्तमी
सप्तमी सर्वान् देवान्
द्वितीयवचनं
भूतविशेषसमूहान् द्वितीया बहुवचनं ऋषीन् द्वितीया बहु ब्रह्माणां
षष्टि बहुवचनं
षष्टि बहुवचन नाम अस्ति चेत् ब्रह्माणाम् ईश्वरं च ईश्वरं च दृष्टवान् ब्रह्माणाम् ईश्वरं द्वितीया एकवचनं च दृष्टवान् तवत् रूपम्
विभक्ति चक्षुः
चक्षुः द्वितीया विभक्ति
चक्षुः
कथं जानीमः प्राप्य ल्यबन्तपदमस्ति चेत् ततः पूर्वं द्वितीया विभक्ति अन्य क्लू अस्ति दिव्यं दिव्यम् इति द्वितीया एकवचनं चक्षुः अपि द्वितीया एकवचनम् ईश्वरं च दृष्टवान् विश्वरूपदर्शनेन अत्र अत्र विभक्तिका दर्शनेन
दर्शनेन तृतीया एकवचन
तृतीया एकवचनं दर्शने इति अस्ति चेत् सप्तमी दर्शनेन तृतीया अर्जुनस्य षष्टि मोहः नष्टः प्रथम मोहः नष्टः सः ज्ञानं प्राप्तवान् ज्ञानं द्वितीय प्रथमापि समानमेव ज्ञानम् अस्ति ज्ञानं प्राप्तवान् नपुंसकलिङ्गपदं प्रथमादिसमानरूपं अत्र द्वितीया एव प्राप्तवान् इति अस्ति चेत् किं प्राप्तवान् ज्ञानं प्राप्तवान् ज्ञानं प्राप्तवान् ज्ञानम् अस्ति तस्मिन् ज्ञानम् अस्ति हि हेस् ज्ञानम् इति भगवन् भगवन् विभक्तिका
सम्बोधन
मम सन्देहः नष्टः
मम षष्टि
मम षष्टि सन्देहः नष्टः
प्रथम
प्रथम अहं तव वचनं करिष्यामि तव
तव मम तव कफ
तव षष्टि वचनं करिष्यामि इति उक्तवान् द्वितीया इति उक्तवान् युद्धं कर्तुं सः सन्नद्धः अभवत् युद्धं कर्तुं तुमुन् अस्ति चेदपि अत्र द्वितीया भवति तव तु ल्यबन्तं तुमुनन्तं शतरन्तम् आल् दीस् प्रत्ययः आगच्छति चेत् ततः पूर्वं द्वितीया विभक्ति भवति युद्धं कर्तुं युद्धं प्रचलति दट् इस् प्रथमा विभक्ति युद्धं कर्तुं सः सन्नद्धः अभवत् प्रथमा विभक्ति सः अपि प्रथमा विभक्ति एव
वचन
प्रथमा एकवचनं
भगिनी तव तु ल्याप् तुमुन्
शत्रन्त शत्र
तर्हि द्वितीया विभक्ति भवति
अत्र विभक्तिवल्लर्यां द्रष्टुं शक्नुमः एकनिमेषं दर्शयामि विभक्ति ओह् कुत्र अस्ति सो अत्र पठितवान् तवतु प्रत्यय
धन्यवादः
पठितवान् तवतु प्रत्यय पठित्वा त्वान्तं पठितुं तुमनन्तं ल्यबन्तं लभन्तं पठन् शतरन्तम् एतत् लकारः लट्लकार लोट्लकार एवं परन्तु प्रत्ययम् एवं भवति पठितवान् तवतु प्रत्यय पठित्वा त्वान्तं तुं पठितुं तुमनन्तं विलिख्य ल्यबन्तं पठन् शतरन्तम् एवम् अस्तु अस्तु एतत् समापितवन्तः अस्तु अग्रे गच्छामः अग्रिमपाठः अस्ति लृट् लकारः लृट् लकारः इत्युक्ते किं
फ्यूचर्
भविष्यत्काल भविष्यत्काल सो अत्र किम् अस्ति एतान् गीताश्लोकान् उच्चैः पठत कुत्र भविष्यत्कालरूपम् अस्ति करिष्यसि करिष्यसि इत्युक्ते त्वं रैट् सो मध्यमपुरुष त्वं करिष्यसि पापम् अत्रापि सि अस्ति कथयिष्यन्ति यन्ति इत्युक्ते बहुवचनं यास्यसि अपि मध्यमपुरुष यन्ति यसि सो अत्र भोक्ष्यसे आत्मनेपदि एतत् एतत् ति ति इति अस्ति चेत् परस्मैपदि ते अस्ति चेत् आत्मनेपदि आत्मनेपदि भवति परस्मैपदि आत्मनेपदि इति मिलित्वा एतानि वाक्यानि उच्चैः पठत अवगच्छत च अद्य सोमवासरः अस्ति श्वः मङ्गलवासरः भविष्यति वयं जानीमः एव श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि लेखिष्यामि भविष्यामि अद्य अहं मौखिकम् अभ्यासं करोमि अद्य श्वः लेखनस्य अभ्यासं करिष्यामि नूतनविषयः नास्ति त्वम् अद्य सायङ्काले किं करिष्यसि ते अत्र कदा आगमिष्यन्ति पठिष्यन्ति च सो एवम् एवम् अस्ति भविष्यत्कालरूपम् अस्तु वा किं किं महोदय
मौखिकं
मौखिकम् इस् ओरल् ओरल् लैक् मुखात् मुक् बिकेम् मौखिकं लैक् दट् अद्य अहं मौखिकम् अभ्यासं करोमि ओरल् ओरल् अभ्यासं श्वः लेखनस्य अभ्यासं करिष्यामि अस्तु सो इफ् यु लुक् अत्र साधारणतया इष्यति इष्यामि इष्य इष्य एव परन्तु वि आल्सो हेव् इस् आल्सो प्रहास्यसि आप्स्यति वाप्स्यति अवाप्स्यति इक्ष अपि भवति सो अत्र अत्र पश्यामः परस्मैपदी अस्तु सो अत्र इष्यति चलिष्यति चलिष्यतः चलिष्यन्ति लट्लकार कथं भवति चलति चलतः तीतः अन्ति सम्यक् तीतः अन्ति तीतः अन्ति इस् फालोड् हियर् टु तीतः अन्ति तीतः अन्ति ओन्लि थिङ्ग् इस् इष्य सो भविष्यत्कालस्य लक्षणम् इष्य इष्य इति सर्वत्र आगच्छति परन्तु सर्वत्र इति न अधिकतया मोस्ट्लि इष्य क्षम्यताम् इष्ट न इष्य इष्य अनन्तरं तीतः अन्ति तीतः अन्ति सीतः थ and then me vaha vi maha maha evam so atra latlakarasya rupani evam lang ritlakarasya rupam api samanam bhavati parantu madhye ishya athava isya ikshya so atra ishya bhavati sya bhavati asya इति भवति इक्ष्य अपि भवति साधारणतया इष्य भवति परन्तु विशेषक्रियापदानि भवन्ति तत्र आस्य उदाहरणार्थम् अद्य अहं पिबामि श्वः अहं पास्यामि एवं भवति पास्यामि अद्य अहं पश्यामि श्वः अहं द्रक्ष्यामि एवं भवति इक्ष कुत्र किं भवति इति अभ्यासबलेन एव वयं ज्ञातुं शक्नुमः सूत्राणि अपि सन्ति परन्तु इदानीं सूत्राणि मास्तु सो अत्र इष्यति वयं जानीमः खलु वि नो दिस् रैट् अग्रे गच्छामः वा अत्र पश्यन्तु सो दृष् धातु अस्ति चेत् द्रक्ष्य इक्ष्य भवति साधारणतया इष्य परन्तु अक्ष्य द्रक्ष्य दृष् धातु द्रक्ष् भवति द्रक्ष्यति द्रक्ष्यतः परन्तु अन्ते समानमेव तीतः अन्ति सीतः त मीवः मह समानमेव भविष्यति करिष्यति कृ धातु करिष्यति करिष्यतः करिष्यन्ति परन्तु कृ धातु उभयपदि उभयपदि इत्युक्ते परस्मैपदि अपि भवति आत्मनेपदि अपि भवति परन्तु रूपं किञ्चित् समानमेव सो आत्मनेपदि धातु लट्लकारे कथं भवति वन्दते
वन्देते
वन्दते वन्दन्ते अत्र तीतः अन्ति अत्र ते एते अन्ते ते
द दृष् धातु व्हाट व्हाट पदि इज इट द प्रिंटिंग इज समथिंग इज रॉन्ग बी व्हाट इज इट
परस्मै एव परस्मै
परस्मै पदि ओनली
परस्मै ओनली बिकॉज़ ऑफ द ति परस्मै पदि पदेः लक्षणम् अस्ति पदिनः लक्षणं पदिन so the moola roopam is padin so I should say padinaha lakshanam asti ti atmane padinaha lakshanam asti te
padin bhagini padin
padin atmane padin so atra so ete ante se te te dve ye vahe mahe वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दद्वे वन्दे वन्दावहे वन्दामहे एवम् एवं सन्ति रूपाणि सो द सेम् थिङ्ग् अत्र अपि परन्तु मध्ये इष्य इष्य श्य श्य इष्य इष्य इति भवति आत्मनेपदि कृ धातु एवम् एवम् अस्ति आत्मनेपदि वृत् धातु वर्त् भवति अत्र अपि कुत्र न उदाहरणम् अत्र नास्ति अस्तु वृत् अस्ति चेत् वर्तते वर्तते इत्युक्ते अर्थः कः अस्ति इति अस्ति वृद्ध वर्धते सो अत्र वृ विल् बिकम् वर्द् एवं भवति वृ विस् वर्द् वर् इति अर् अर् भवति अर् अर् इति भवे सो अत्र वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तद्वे दट् इस् लट्लकार
भगिनि गुणसन्धि अस्ति गुणसन्धि
गुणसन्धि सन्धिकार्यम् अभवत् अत्र सन्धिकार्यम् अभवत् गुणसन्धि
वृत्त भवति तर्हि सन्धिकार्यं भवति
सन्धिकार्यं भवति सन्धिकार्यं भूत्वा एवं भवति वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते वर्तिष्यसे वर्तिष्येथे वर्तिष्यद्वे वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे ईक्ष समान ईक्ष्यते ईक्ष्येते ईक्ष्यन्ते ईक्ष्यसे ईक्षिष्यते क्षम्यताम् ईक्ष ईक्षिष्यते ईक्षते इति लट्लकार परन्तु अत्र लृट्लकार ईक्षिष्यते इष्यते इष् भवति इष् इष् इति भवति अत्रापि इष् वर्तते इति लट्लकार वर्तते अते परन्तु मध्ये इष् भवति इष्य सो अत्र अत्र भवति वर्तिष्यते आ न भवति वर्तिष्यते अत्रापि ईक्षते ईक्षते इति लट्लकारे भवति मध्ये इष्य योजयामः ते ईक्षिष्यते तत्र सर्वत्र इष्य आत्मनेपदी अपि इष्य चलति चलति इति अस्ति इष्य योजयामः चेत् चलिष्यति एवम् एवं भवति चलिष्यति सो अत्र परन्तु किञ्चित् भिन्नरूपं गच्छति गच्छति इति लट्लकारे परन्तु लृट्लकारे गमिष्यति गम् गम् इति आगच्छति गम्तः गमिष्यति लट्लकारे गच्छति परन्तु एतत् वयं जानीमः अतः सुलभमेव खलु वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेते वर्तद्वे वर्ते वर्तामहे वर्तामहे समान अन्तिमरूपाणि लृट्लकारे अपि भवति अस्तु अग्रे अभ्यासेन वयं इतोपि अधिकं जानीमः सो अत्र इदानीं विशेषक्रियापदानि इष्य न भवति अत्र इष्य न भवति दा धातु अपि उभयपदी इत्युक्ते दास्यति दास्यते न्यादातु न्यास्यति न्यास्यते श्रुधातु श्रोष्यति श्रोष्यति लिक् धातु लेखिष्यति मिल् मेलिष्यति सो अत्र ई अस्ति चेत् एवम् एवं भवति परन्तु सर्वत्र इति न लिक् अस्ति चेत् लेखिष्यति मिल् अस्ति मेलिष्यति मन् अस्ति चेत् मन्स्यते आत्मनेपदी धातु रंस्यते अत्रापि आत्मनेपदी धातु पृच् प्रक्ष्यति अन्य कुत्र इक्ष् भवति शक् शक्ष्यति दृश् द्रक्ष्यति प्रक्ष्यति द्रक्ष्यति शक्ष्यति एवम् एवमेव आत्मनेपदि योक्ष्यते युज् धातु योक्ष्यते भुज् धातु भोक्ष्यते भोक्ष्यते स्था धातु स्थास्यति उत्तास्यति ग्रह् धातु ग्रहीष्यते ग्रहीष्यति उभयपदी धातु ग्रहीष्यति ग्रहीष्यते विष् धातु उपवेक्ष्यति अत्रापि विष् इष् इ अस्ति चेत् ए भवति उपवेक्ष्यति युज् योक्ष्यति युद् योत्स्यति इष् एषिष्यति किञ्चित् कठिनमेव क्रीधातु क्रीतवान् इति क्रेष्यति क्रेष्यते समानरूपाणि आत्मनेपदी परस्मैपदी अपि नी दीर्घ ई अस्ति चेत् नेष्यति क्रेष्यति नेष्यते नयति इति लट्लकारे परन्तु तादृशं न भवति नेष्यति क्रेष्यति नं नंस्यति मन् मन्स्यते इव नं नंस्यति नृत् नर्तिष्यति हु होष्यति भुज् भोक्ष्यते पुनः पुनः पठामः चेत् मनसि तिष्ठति
भगिनि इस् एष्यति लट्लकाररूपं किम्
इच्छति इच्छति एषिष्यति अभवत् बहु भिन्नरूपाणि पुनः पुनः पठामः चेदेव मनसि तिष्ठति अभ्यासं कुर्मः ततः ज्ञानं प्राप्नुमः अस्तु पट् पट् धातु पठिष्यति पठिष्यतः पठिष्यन्ति सुलभमेव चल् धातु कः आरम्भं कुर्मः वा मिलित्वा कुर्मः वा एकमेकं कुर्मः वा मिलित्वा वा प्रथमं मिलित्वा कुर्मः चल् धातु
चलिष्यति
गम् धातु गमिष्यन्ति सो अत्र मध्यमपुरुष
गमिष्यसि गमिष्यतः
सः गमिष्यथ एवम् एवं भवति सो अत्र सीतः सीतः एवं भवति सीतः इदानीं क्रीड् दातु अस्तु एकमेकं कुर्मः श्रीनिवासमहोदय क्रीड् दातु
उत्तमपुरुषामि क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः
क्रीडिष्यावः क्रीडिष्यामः खाद् दातु चम्पा चम्पा भगिनी प्रथमपुरुष
प्रथमपुरुष खाद् दातु खादिष्यति खादिष्यतः खादिष्यन्ति
खादिष्यन्ति सम्यक् धाव मध्यम मध्यमपुरुष अम्ब वदतु
धावसि
धाविष्यसि सम्यक्
धाविष्यतः
धाविष्यत उत्तमम् अस्तु लता भगिनी अग्रे
उत्तमपुरुष नंस्यामि नंस्यावः नंस्यामः
नंस्यामः सो एतादृशं पठामः चेत् मनसि तिष्ठति नंस्यामः इति धृधातु अग्रे निर्मला भगिनी प्रथमपुरुष धरिष्यति धरिष्यतः धरिष्यन्ति सम्यक् धरिष्यति धरिष्यतः धरिष्यन्ति धरिष्यन्ति इति अग्रे सविता भगिनी
वा
अस्तु मध्यमपुरुष हरिष्यसि हरिष्यत अस्तु श्रीनिवास महोदय पुनः द्वयं करोतु
स्मृ दातु स्मृ उत्तमपुरुषः
न न मुद् प्रथमम् अनन्तरं
मुद् दातु मोदिष्यते ओके इद get my thought process correct first okay modishyate modishyate modishyante
modishyate modishyante latla karyakatam asti tata eva astu smru dhatu uttama purusha
smru dhatu uttama purusha smarishyami smarishyavah smarishyamah
samya smarishyavah smarishyamah samya अस्तु चम्पा भगिनी
आं भगिनि वद् धातु पुरुष वदिष्यति वदिष्यतः वदिष्यन्ति
सम्यक् वदिष्यति वदिष्यतः वदिष्यन्ति पृच्छ धातु
पृच्छ धातु मध्यम पुरुष प्रक्ष्यसि प्रक्ष्यतः प्रक्ष्यथ
सम्यक् प्रक्ष्यसि सो वयम् एतत् जानीमः चेत् सुलभं भवति प्रक्ष् प्रक्षिति जानीमः चेत् प्रक्ष्यति प्रक्ष्यतः प्रक्ष्यन्ति प्रक्ष्यसि प्रक्ष्यतः प्रक्ष्यथ प्रक्ष्यामि प्रक्ष्यावः प्रक्ष्यामः इति भवति अस्तु अग्रे अम्ब उत्तमपुरुष हु दातु होष्यामि अन्म्यूट् कर्तुं शक्नोति वा अन्म्यूट् कृतवती अहं होष्यामि
होष्यामि होष्यावः होष्यामः
सम्यक् होष्यावः होष्यामः
सविता भगिनि हू अर्थं किं भगिनि
हू इति अहं चिन्तयामि something to burn iti bagini ho
okay dhanyawada bagini
iti aham chintayam
something like ahuti bagini
ahuti aam ho
havan
so atra ho dhatu evam asti pashyamah va kosham pashyamah ekana न भवति इति
हवन् भगिनि
हवन् एव अस्तु यजुर्वेद अस्तु एवं भवति अस्तु अग्रे अम्ब दृश् दातु दृश् उत्तमपुरुष द्रक्ष् इति अस्ति द्रक्ष् अहं
टु सी भगिनि
द्रक्ष्यामि द्रक्ष्यामि
द्रक्ष्यामः द्रक्ष्यावः द्रक्ष्यामः
सम्यक् द्रक्ष्यावः द्रक्ष्यामः सम्यक् धन्यवादः अम्ब लता भगिनि
आं भगिनि प्रथमपुरुष नेष्यति नेष्यतः नेष्यन्ति
सम्यक् नेष्यति नेष्यतः नेष्यन्ति अस्तु अग्रे
मध्यमपुरुष मेलिष्यसि मेलिष्यतः मेलिष्यत
मेलिष्यत अस्तु सम्यक् धन्यवादः निर्मला भगिनी पा सम्यक् पास्यामि पास्यावः पास्यामः रम दातु
रमते रमे
रम रमस्य
रम्स्यते
रम्स्यसे रम्स्यसे सम्यक्
रम्स्येते
रम्स्यद्वे इति भवति मध्यमपुरुष रंस्यसे रंस्येथे रंस्यद्वे उत्तमपुरुष रंस्ये रंस्यावहे रंस्यामहे एवं भवति रंस्यावहे रंस्यामहे अस्तु अग्रे क्षाल् सविता भगिनी वा
आं भगिनि
आम्
क्षालयिष्यतः क्षामि वहमः सुधातः
प्रथमपुरुष
क्षालिष्यामि क्षालिष्यामि
प्रथमपुरुष क्षालयिष्यति
क्षालयिष्यति सीतः अन्ति ओके क्षालयिष्यति क्षालिष्यतः क्षालयिष्यन्ति
सम्यक् रुद् दातु
रोदिष्य सीतः रोदिष्यति रोदिष्यतः रोदिष्यथ
रोदिष्यत इदानीं मिलित्वा कुर्मः समयः तावत् तावत् नास्ति वद् दातु उत्तमपुरुष वदिष्यामः रुद् प्रथमपुरुष आत्मनेपदि योत्स्यन्ते इति भवति भूधातु
भविष्यति
भविष्यन्ति सम्यक् कृ धातु
उत्तमपुरुष करिष्यामि करिष्यामः
समानं कृ धातु परन्तु इदानीम् आत्मनेपदि
उत्तमपुरुष
करिष्यावहे करिष्यामहे अत्र करिष्ये भवति करिष्यावहे करिष्यामहे स्था धातु उत्तम उत्तमपुरुष अहं स्थास्यामि स्थास्यामः अग्रे स्थापयिष्यति स्थापयिष्यतः स्थितः अन्ति अस्तु नृत् मध्यमपुरुष
मध्यमपुरुषः नर्तिष्यसि नर्तिष्यतः नर्तिष्यत
सम्यक् नर्ति सीतः थ इदानीं तृ धातु तरिष्
तरिष्यामि
तरिष्यावः
तरिष्यामः
लप्स्ये लप्स्ये आत्मनेपदि आत्मनेपदि लप्स्यामहे लप्स्यामहे लप्स् सो अत्र सर्वत्र लप्स् इति अस्ति लप्स्ये लप्स्यावहे लप्स्यामहे सो अत्र मध्यमपुरुषे किं किं भवति आत्मनेपदि धातु लप्स्यते प्रथमं नवरूपाणि कुर्मः लप्स्यते लप्स्येते लप्स्यते
लप्स्येते
लप्स्येते
लप्स्ये लप्स्यावहे लप्स्यामहे
स्वास्त्रु समयः अभवत् अग्रिमवर्गे एवम् इतः आरम्भं कुर्मः सो 113 अस्तु समापयामः शान्तिमन्त्रम् उक्त्वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः
धन्यवादः भगिनि
धन्यवादः भगिनि पुनर्मिलामः
पुनः मिलामः